एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण इक्षूणाम् न्यूनतम क्रयणमूल्यम् प्रति क्विंटल परिमितम् 20-60 रूप्यकाणि निर्धारितानि सन्ति। परह्य उपविष्टस्य मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री जगदीश खरेलः वर्तमानार्थिक वर्षस्य कृते इक्षूणाम् न्यूनतम क्रयणमूल्यस्य निर्धारणम् कर्तुम् इक्षुक कृषकेभ्यः अनुदानरूपेण प्रति क्विंटल परिमितम् 70 रूप्यकाणि प्रदातुम् च निर्णीतमस्ति इति असूचयत्। पत्रकार सम्मेलने संचार मन्त्री खरेलः यातायात क्षेत्र सम्बद्धानाम् सर्वोच्च न्यायालयस्य आदेशानाम् क्रियान्वयनस्य विषये दीपक सुवेदिनः अध्यक्षतायाम् त्रिसदस्यात्मकम् अनुसन्धान आयोगम् संघटयितुम् निर्णीतमस्ति इति असूचयत्। एवमेव जेएनजीयूनाम् समूहस्य प्रदर्शने आन्दोलने च आहतेभ्य अपाङ्गतायुतेभ्य जनेभ्यश्च सहयोगम् प्रदातुम् निर्मितम् एतद् विक्रमवर्षीयम् कार्यविधिम् स्वीकर्तुम् नेपाल मौरिशस देशयोः मध्ये स्थितायाः कर सम्बद्धायाः संविधायाः व्यवस्थायाः अन्त्यम् विधातुम् च निर्णीतमस्ति। एवमेव उपवेशेन इलाम कास्की चितवन झापा प्रभृतिनाम् 10 जनपदानाम् विपन्न परिवाराणाम् सूची स्वीकृतास्ति इति मन्त्री खरेलः असूचयत्। एवमेव संचार सूचना प्रविधि मन्त्रालयस्य अन्तर्गतानाम् निकायानाम् च संघटन व्यवस्थापन सम्बद्धाय सर्वेक्षणाय पूर्व स्वीकृतिम् प्रदातुम् आर्थिक कार्यविधि वित्तीयोत्तर दायित्व सम्बद्धाम् एतद् विक्रमवर्षीयाम् द्वितीय संशोधन नियमावलीम् स्वीकर्तुम् च निर्णीतमस्ति इति मन्त्री खरेलः असूचयत्। आगामिनः फाल्गुन मासस्य 21 दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्य पदानाम् निर्वाचनस्य अन्तर्गतम् समानुपातिक निर्वाचन प्रणाल्याः कृते शतसंख्यातानाम् राजनीतिक दलानाम् 93 निवेदनानि प्राप्तानि सन्ति इति निर्वाचन आयोगेन ज्ञापितम् वर्तते। एकल निर्वाचन चिह्नमादाय निर्वाचने भागम् ग्रहीतुम् इच्छुकानाम् 12 दलानाम् 5 निवेदनैः सहितम् 100 दलानाम् 93 निवेदनानि प्राप्तानि सन्तीति समानुपातिक निर्वाचन प्रणाल्या सहायक निर्वाचनाधिकृत सहसचिव यज्ञ प्रसाद भट्टराय असूचयत्। समानुपातिक दलानाम् सूची अद्य प्रकाशयिष्यते। दलानाम् नामानि प्रत्यावर्तनाय मार्गशीर्ष मासस्य 25 दिवस निर्धारितोऽस्ति। निवेदनमाधृत्य आवश्यकम् अनुसन्धानम् विधाय मार्गशीर्ष मासस्य 26 दिवसे दलानाम् अन्तिमा नामावली प्रकाश्यते। निर्वाचन चिह्नानि च प्रदास्यन्ते इति आयोगेन ज्ञापितम् वर्तते। प्रधानमन्त्री सुशीला कार्की निगदति वर्तमान सर्वकारः न केवलं निर्वाचनाय एव निर्मितोऽस्ति प्रत्युतः सुशासनाय अपि तीव्रतया कार्यं विदधानो वर्तते। भ्रष्टाचार विरुद्धस्य 22तमस्य अन्तर्राष्ट्रिय दिवसस्य अवसरे सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्यः आयोजिते कार्यक्रमे प्रधानमन्त्री कार्की सुशासनस्य स्थापनस्य आकांक्षायाः सम्भूतस्य जेएनजीयूनाम् समूहस्य आन्दोलनस्याधारेण सर्वकारोऽयं निर्मितोऽस्तीत्यतः आत्मना नियमितरूपेण क्रियाशीलतया सुशासनस्य कृते कार्यं विधीयमानमस्ति इति प्रावोचत्। प्रधानमन्त्रिणा सुशीला कार्की इत्यनया सह भारतस्य विदेश मन्त्रालयस्य अतिरिक्त सचिवेन मुनु महावर इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। सिंहप्रासादे ह्य सम्भूते मेलने अनयोर्मध्ये द्विपक्षीयस्य पारस्परिक हितस्य विविधेषु विषयेषु विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। आसन्न प्रतिनिधिसभा सदस्य निर्वाचनं सफलतापूर्वकं सम्पादयितुं प्रतिवेशिना भारतदेशेन सहयोगस्य प्रतिबद्धता विहिता अस्ति। गृहमन्त्रिणा ओमप्रकाश अर्यालेन सह भारतीय विदेश मन्त्रालयस्य अतिरिक्त सचिवेन मुनु महावर इत्यनेन ह्य विहिते शिष्टाचार मेलने असौ निर्वाचनस्य कृते आवश्यकानां स्रोतसाधनानां सुरक्षा सामग्रीणां च सहयोगो भारतदेशेन विधास्यते इति प्रतिबद्धताम् अभिव्यनक्। ह्य एव भारतस्य विदेश मन्त्रालयस्य अतिरिक्त सचिवेन महावर इत्यनेन संचार सूचना प्रविधि मन्त्रिणा जगदीश खरेलेन सह विहिते मेलने अनयोर्मध्ये नेपाल भारतयोः सम्बन्धस्य द्विपक्षीयस्य सहकार्यस्य वर्तमान अवस्थायाः सर्वकारस्य प्राथमिकतायाश्च विषयेषु विमृष्टमस्ति इति च ज्ञापितम् वर्तते। मानवाधिकाराणां संरक्षणाय विश्वव्यापिनः संयुक्त सहकार्यस्य प्रतिबद्धतायाश्च लक्ष्येण सह अद्य 77वां अन्तर्राष्ट्रिय मानवाधिकार दिवसः समायोज्यमानो वर्तते। नेपालेपि अस्य दिवसस्य अवसरे विभिन्नाः कार्यक्रमाः समायोज्यमानाः वर्तन्ते। अष्टचत्वारिंशदुत्तरैकोनविंशतिशततमे ख्रीष्टवर्षे संयुक्तराष्ट्रसंघस्य महासभया पारितीकृतस्य मानवाधिकाराणां विश्वव्यापिनः घोषणापत्रस्य स्मरणे प्रतिवर्षम् अद्यतने दिवसे दिवसोऽयं समायोज्यते। तेन घोषणापत्रेण जाति धर्म लिंग भाषा विचार सामाजिक मूल्य मान्यता जन्मनांश आधारेण कथं विधेनापि भेदभावेन विना सर्वेभ्य समानाधिकाराः सुनिश्चिताः वर्तन्ते। अवसरेऽस्मिन् मानवाधिकार दिवसस्य सन्दर्भे राष्ट्रपतिना रामचन्द्र पौडेलेन, उपराष्ट्रपतिना रामसाय प्रसाद यादवेन, प्रधानमन्त्रिणा सुशीला कार्की इत्यनया विभिन्न राजनीतिक दलैश्च शुभकामना सन्देशाः प्रदत्ताः सन्ति। एनपीएल नाम्न्याम् नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा प्रतियोगितायां सुदूरपश्चिम रोयल्स समूह अन्तिमे चरणे प्राप्तोऽस्ति। ह्य सम्पन्नायाम् अन्तिम चरणस्य प्रथम क्रीडायां विराटनगर किंग्स समूहं 77 धावनांकै पराजित्य सुदूरपश्चिम रोयल्स समूह अन्तिमे चरणे प्राप्तोऽस्ति। अतः परं पराजितेन विराटनगर किंग्स समूहेन अन्तिम क्रीडायां प्राप्त्यर्थं पुनः क्रीडनीया भवति। ह्य सम्भूतायां क्रिकेट क्रीडायां सुदूरपश्चिम रोयल्स समूहेन प्रदत्तानां 58.1% धावनांकानां लक्ष्यम् अनुसरता विराटनगर किंग्स समूहेन 10.14 ओवरांकेषु सम्पूर्ण क्रीडकानां क्षेत्रौ 78 एव धावनांकाः अर्जिताः आसन्। तत्पूर्वं सुदूरपश्चिम रॉयल्स समूहेन निर्धारितेषु 20 ओवरांकेषु 7 क्रीडकान् हपित्वा 55.1% धावनांकाः योजिताः आसन्। इति समाचारः।